इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। विकास परियोजनानाम् उद्घाटनाय, रेलयानानां हरितध्वजं प्रदर्शनाय च प्रधानमन्त्री नरेन्द्र मोदी श्वः केरल राज्यं गमिष्यति। झारखंड राज्ये सुरक्षाबलेन वरिष्ठः माओवादी नेता अनलदा इत्यमुं समेत्य दशाधिकाः माओवादिनः मारिताः। जम्मू कश्मीर प्रदेशे डोडा जनपदस्य खन्नीटॉप इत्यत्र मार्गात् सैन्य ट्रक यानम् अपक्रम्य खात्यां पतनेन दश सैनिकाः मृताः, एकादश जनाः च व्रणिताः। भारत अमेरिका देशयोः मध्ये वाशिंगटन डीसी नगरे त्रिदिवसीयम् औषध नीति कार्यकारी सम्मेलनं समाप्तम्। अपि च बैडमिंटन क्रीडायां भारतीय क्रीडकौ पीवी सिंधु लक्ष्य सेना च अद्य इंडोनेशिया मास्टर्स प्रतियोगितायाः प्रागुपान्त्य चक्रीय द्वन्द्वे प्रविष्टवन्तौ। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी श्वः केरल राज्यं गमिष्यति, यत्र सः तिरुवनन्तपुरम नगरे अनेकासां विकास परियोजनानां शिलान्यासम् उद्घाटनं लोकार्पणं च करिष्यति, तत्र एकं जनसमूहम् अपि सम्बोधयिष्यति। एतासु परियोजनासु रेलसम्पर्कः, नगरीय आजीविका, विज्ञान नवान्वेषणं, स्वास्थ्य सेवा, नागरिक सेवा च सम्मिलिताः सन्ति, यस्योद्देश्यं समावेशक वृद्धिः, जीवनस्य गुणवत्तायां परिष्कारः च अस्ति। प्रधानमन्त्री चतुर्णां रेलयानानां हरितध्वजं प्रदर्शयितुं येषु त्रीणि अमृत भारत एक्सप्रेस रेलयानानि अपि सन्ति। सः वीथि विक्रेतृभ्यः वित्तीय समावेशनं सुदृढीकरणाय पीएम स्वनिधि क्रेडिट कार्ड इत्यस्य आरम्भं करिष्यति, तथा च एकलक्ष लाभार्थीनां कृते पीएम स्वनिधि ऋणस्य वितरणमपि करिष्यति। विज्ञान नवान्वेषण क्षेत्रे च श्रीमोदी श्री CSIR, NIIST, नवान्वेषण प्रौद्योगिकी उद्यमशीलता हब इत्यस्य शिलान्यासं करिष्यति। स्वास्थ्य सेवायां सह श्री चित्र तिरुनाल संस्थाने रेडियो सर्जरी इत्यस्य शिलान्यासमपि करिष्यति, येन उन्नत चिकित्सा सेवा वर्धिता भविष्यति। झारखंड राज्ये अद्य पश्चिम सिंहभूम मण्डले नक्सल विरोधी अभियाने सुरक्षाबलेन द्वन्द्वे दशतोप्यधिकाः माओवादिनः मारिताः। प्रातःकाले सीपीआई माओवादी विद्रोहिणां विरुद्धं सुरक्षा प्रक्रियायां गुलिकाप्रहारं समारब्धम्। मृतेषु वरिष्ठः माओवादी नेता पातिराम मांझी अथवा अनलदा सम्मिलितः आसीत्, यो हि एककोटिरूप्यकाणां पारितोषकं धारयति। सः गिरिडीह मण्डलस्य निवासी आसीत्। जम्मू कश्मीर प्रदेशे डोडा जनपदस्य खन्नीटॉप इत्यत्र मार्गात् सैन्य ट्रक यानम् अपक्रम्य खात्यां पतनेन दश सैनिकाः मृताः, एकादश जनाः च व्रणिताः अभवन्। चत्वारः घटनास्थले एव मृताः, षट् च पश्चात्। सेनया आरक्षिबलेन च संयुक्तोद्धारकार्यं तक्षणमेव समारब्धम्। व्रणिताः दश सैनिकाः उधमपुर कमाण्ड चिकित्सालयं प्रति वायुमार्गेण नीताः। एकः भद्रवाह उपमण्डलीय चिकित्सालये निरीक्षणे अस्ति। उपराज्यपालः मनोज सिंह, मुख्यमंत्री उमर अब्दुल्ला, रक्षामंत्री राजनाथ सिंह च घटनायां शोकं प्रकटितवन्तः। औषध नीति कार्यकारी समूहस्य त्रिदिवसीय उद्घाटन सम्मेलनम् अद्य वाशिंगटन डीसी इत्यत्र समाप्तम्। जनवरी मासस्य विंशति दिनांके समारब्धं सम्मेलनम् कृत्रिम ओपिओइड्स, उदयोन्मुख मादक द्रव्याणां पूर्वगामी, डिजिटल मञ्चानां दुरुपयोगं च निवारयितुं सहयोगं सुदृढं कर्तुं केन्द्रितमासीत्। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। दावोस नगरे विश्व आर्थिक मञ्चे अमेरिका देशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेन प्रधानमन्त्रिणं नरेन्द्र मोदिनं प्रशंसितम्। श्रीमोदी घनिष्ठमित्रम् इति सम्बोधयन् अमेरिकादेशस्य राष्ट्रपतिः भारत अमेरिकादेशयोः मध्ये व्यापार समन्वयं भविष्यति इति आत्मविश्वासं प्रकटितवान्। एषा टिप्पणी तदा अभवत् यदा वाशिंगटन नवदिल्ली च व्यापार व्यवहारस्य गतिरोधस्य निराकरणार्थं वार्तालापं निरन्तरं कुर्वन्तौ स्तः। संभाव्य व्यापार संधि विषये प्रत्यक्षतया प्रश्नस्य उत्तरे अमेरिकादेशस्य राष्ट्रपतिः अवदत् यत् सः उत्तमः व्यवहारः करिष्यति इति। अग्रिमे सप्ताहे नवदिल्ल्यां यूरोपीय संघ भारत शिखर सम्मेलने नूतन सुरक्षा रक्षा सहभागितायाः हस्ताक्षरेण भारत यूरोपीय संघयोः सामरिक सम्बन्धः सुदृढः भवितुं सज्जः अस्ति। यूरोपीय संघस्य विदेश नीति विभागस्य प्रमुखा काजा काल्लास इत्येषा फ्रांस देशस्य स्टारबर्ग नगरे यूरोपीय संसदि अघोषितवती। सा अवोचत् यत् इयं सन्धि भारत प्रशान्त क्षेत्रे स्थिरतायै केन्द्रीकृतं समुद्रीय सुरक्षायां आतंकवाद निरोधे साइबर सुरक्षायां समुद्रीय क्षेत्रे जागरूकतायां च प्रमुख क्षेत्रेषु सहयोगं सुदृढं करिष्यति। यूरोपीय संघस्य विदेश नीति प्रमुखः अवदत् यत् यूरोप देशः भारतेन सह शक्तियुतं नूतनं कार्यसूचीं दातुं सज्जः अस्ति। यूरोपीय संघः भारतस्य बृहत्तमेषु व्यापार सहभागिषु अन्यतमः अस्ति इति। अग्रिमे सप्ताहे यूरोपीय आयोगस्य अध्यक्षस्य उर्सुला वॉन डेर लेयेन इत्यस्य यूरोपीय परिषदः अध्यक्षस्य एंटोनियो कोष्टा इत्यस्य च भारत यात्रायाः समये सहभागित्वेषु हस्ताक्षरं भविष्यति, यत्र ते गणतंत्र दिवस समारोहे मुख्यातिथि भविष्यतः। नेतारौ अस्मिन् मासे 27 दिनांके प्रधानमन्त्रिणा नरेन्द्र मोदिना सह 16वें भारत यूरोपीय संघस्य शिखर सम्मेलने सह अध्यक्षतां करिष्यतः। सर्वोच्च न्यायालयेन अद्य मध्य प्रदेशस्य धार जनपदस्य विवादित भोजशाला कमल मौला मस्जिद इत्यत्र श्वः वसंत पंचम्यवसरे सूर्योदयात् सूर्यास्त पर्यन्तं प्रार्थनां कर्तुं हिन्दू समुदायाय अनुमति प्रदत्ता। तस्मिन् दिने मुस्लिम समुदायेभ्यः अपराह्ने 1 वादनात् 3 वादन पर्यन्तं प्रार्थनां कर्तुं अनुमति प्रदत्ता अस्ति। सर्वोच्च न्यायालयेन निर्दिष्टं यत् प्रार्थनायै आगतानां मुस्लिम समुदायस्य जनानां सूचीं जनपद प्रशासनं प्रति दातव्यमिति। उभौ समुदायौ शुक्रवासरे भोजशाला परिसरे धार्मिक अनुष्ठानाय अनुमतिं याचितवन्तौ। तदैव वसंत पंचम्यवसरे सरस्वती पूजा अपि आचर्यते। भारतस्य मुख्य न्यायाधीशः सूर्यकान्तः न्यायमूर्ति जॉयमाल्या बागची न्यायमूर्ति विपुल एम पंचोली च इत्येतेषां पीठेन उभयोः पक्षयोः मध्ये सामञ्जस्यं स्थापयितुं राज्येन जनपद प्रशासनेन सह विधिव्यवस्थायां स्थापयितुं सहयोगं दातुं च आदिष्टम्। न्यायालयेन जनपद प्रशासनं पूजास्थले विधिव्यवस्थायै निर्दिष्टमस्ति। प्रधानमन्त्री ग्राम सड़क योजनायाः चतुर्थ चरणस्य अन्तर्गतं जम्मू कश्मीर छत्तीसगढ़ उत्तराखण्ड राजस्थान हिमाचल प्रदेश सिक्किम इत्येतेषु प्रदेशेषु 10,000 किलोमीटर तोप्यधिकाः मार्ग परियोजनाः सर्वकारेण अनुमोदिताः सन्ति। एते मार्गाः पूर्वं पृथक्भूताः प्रायः 70+200+3,000 निवासस्थानानि योजयन्ति, येन आवश्यक सेवानां प्राप्तिः वर्धते। बैडमिंटन क्रीडायां भारतीय क्रीडकौ पीवी सिंधु लक्ष्यसेनः च अद्य इंडोनेशिया मास्टर्स प्रतियोगितायाः प्रागुपान्त्यचक्रीय द्वन्द्वे प्रविष्टवन्तौ। लक्ष्यः पुरुष एकल प्रागुपान्त्यचक्रीय द्वन्द्वे हांगकांग देशस्य जेसन गुनावन इत्येतम् 1:10, 1:11 इत्यांकैः पराजितवान्। अन्ते मुख्यवार्ताः पुनः एकवारम्। विकास परियोजनानां उद्घाटनाय रेलयानानां हरितध्वजं प्रदर्शनाय च प्रधानमन्त्री नरेन्द्र मोदी श्वः केरल राज्यं गमिष्यति। झारखण्ड राज्ये सुरक्षाबलेन वरिष्ठः माओवादी नेता अनलदा इत्यमुं समेत्य 10+ माओवादिनः मारिताः। जम्मू कश्मीर प्रदेशे डोडा जनपदस्य खन्नीटॉप इत्यत्र मार्गात् सैन्य ट्रक यानम् अपक्रम्य खात्यां पतनेन 10 सैनिकाः मृताः 11 जनाः च व्रणिताः। भारत अमेरिका देशयोः मध्ये वाशिंगटन नगरे 3-दिवसीयं औषध नीति कार्यकारी सम्मेलनं समाप्तम् इति वार्ताः।